सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति तृतीया विभक्ति इति. तृतीया विभक्ति तत्र माध्यमेन भवति. यत्र माध्यमम् अस्ति, हस्तः अस्ति, अहं खादामि, हस्तेन खादामि, हस्तः इति माध्यमं भवति. तत्र भीमः प्रहरति, केन प्रहरति अथवा कया प्रहरति? भीमः गदया प्रहरति इति. तत्र माध्यमम् अस्ति इति कृत्वा माध्यमतृतीया इति एकः प्रसिद्धप्रयोगः अस्ति. तत्र वयं पुटसङ्ख्या 171 मध्ये स्मः इति मन्ये. तत्र एकवारं तत्र तृतीया विभक्तेः रूपस्य पुनस्मरणं कृत्वा अग्रे गच्छामः. तत्र रघुपतिमहोदय, सुप्रभातं, नमस्कारः.
नमस्कारः
महोदय. नमस्कारः. चिन्ता मास्तु महोदय. अस्तु, सर्व एषः समयः सम्यक् वा? तत्र वर्गस्य समयः, नूतनसमयः सम्यक् अस्ति वा? अस्तु, पूर्णेन्दु महोदय अपि, उमा मीनाक्षी भगिनी भवती अपि उक्तवती गतवर्गे, किन्तु एकवारं पृच्छामि तावती वा.
न, शीघ्रमस्ति चेत् बहु सम्यक्.
अस्तु भगिनि, अस्तु अस्तु तर्हि. अस्तु तर्हि तत्र एकवारं तत्र पुटसङ्ख्या 169 मध्ये दृष्ट्वा रूपं, केवलम् अकारान्तपुल्लिङ्ग, आकारान्तस्त्रीलिङ्ग, ईकारान्तस्त्रीलिङ्ग इति एकवारं तस्य पुनस्मरणं भवतु इति. तत्र उमा मीनाक्षी भगिनी, तत्र देवः इति पदस्य तृतीयविभक्तिरूपाणि कानि?
देवेन, देवाभ्यां, देवैः
इति. समीचीनं भगिनि. पूर्णेन्दु महोदय, तत्र किं लता इति पदस्य तृतीयविभक्तिरूपाणि?
लतया
तृतीय सर्वदा भ्यां भ्यां.
हा, मध्ये तु भ्यां भ्याम् अस्ति महोदय, द्विवचने. हा,
लताभ्यां,
लता. तावदेव. तत्र लतया तत्तु मनसि भवति, लताभ्याम् इति द्विवचने कोऽपि तत्र विकल्पः एव नास्ति. तत्र तृतीया द्विवचने तत्र लिङ्गभेदः नास्ति खलु? तत्र उकारान्त वा ईकारान्त वा सर्वदा भ्यां भ्याम् एव अस्ति. केवलं तत्र ह्रस्व स्वरः वा अथवा दीर्घस्वरः इति एव प्रश्नः तत्र, किन्तु भ्याम् एव अन्ते भवति खलु महोदय? हा, अस्तु. अग्रे गीताञ्जलि भगिनि, ईकारान्त नदी शब्दः
तृतीया नदीभ्यां,
नदीभिः. हा, तावदेव. अस्तु अस्तु तर्हि तावदेव, एकवारं मनसि भवेत् इति. अस्तु, तत्र वयं तत्र पुटसङ्ख्या 171 मध्ये चतुर्थ अभ्यासः कृतवन्तः इति मन्ये वर्गे, किन्तु पञ्चम अभ्यासः न पूर्णतया कृतवन्तः इति कृत्वा तद् पुनः कुर्मः. तत्र रघुपतिमहोदय आरम्भं करोति वा पञ्चम अभ्यासः 171 मध्ये?
कविभागे एकः शब्दः दत्तः अस्ति. खविभागे तस्य शब्दस्य तृतीया विभक्तेः रूपद्वयं दत्तम् अस्ति. तयोः उचितं रूपं चित्वा रिक्तस्थाने लिखत. तथा यज्ञो यज्ञाभ्याम् अस्ति. इदानीं रूपद्वयम् अस्ति, तय उचितरूपं चित्वा. नदी नदी नद्यौ अस्ति. इदानीं नदीभ्यां, नदीभिः इति एकनिमिषं किमस्ति
तत्र अस्माकं
मनसि द्वितीय द्विवचन अस्ति खलु?
अस्तु, समीचीनं.
द्विवचन अस्ति
अत्र अस्मिन् अभ्यासे. अस्मिन् अभ्यासे कः विषयः, मूलविषयः? तत्र विवचनं,
वचनं, द्विवचनमस्ति. नदीभ्याम् इति,
नदीभ्याम् इति. समीचीनं महोदय.
नद्या, नदीभ्याम् अस्ति. अस्तु, कृतवः, कृतवः कृतवः इति अस्ति क्रतुः इव क्रतुना क्रतुभ्याम् इति क्रतुभिः
इदानीं कृतुकारः
गुरवः
गुरवः वचनं
वचनम् अस्ति द्विवचन कृतवः इति प्रथमाविभक्ति बहुवचनमस्ति अतः कृतुभिः इति अत्र कृतुभिः
समीचीनं महोदय कृतुभिः इति तृतीयाविभक्तिरूपं समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि
आदित्याः इति अहं मन्ये प्रथमविभक्ति बहुवचन अपि च आदित्याभ्याम् आदित्यैः इति समीचीनं महोदय
समीचीनमस्ति समीचीनं भगिनि अग्रिमं श्रुतिः इति
श्रुतिः इति अहं मन्ये एकवचनरूपं श्रुतिः श्रुत्या इति समीचीनं
समीचीनं श्रुतिभ्यां तु द्विवचनरूपम् अस्ति
श्रुतिः द्विवचनं
न श्रुतिभ्याम् इति द्विवचनरूपम् अस्ति अतः तद् मास्तु केवलं श्रुत्या इति एव समीचीनं समीचीनं भगिनि अस्तु पूर्णेन्द्र महोदय अग्रे
नित्रे नित्रं शब्दस्य द्विवचनरूपं कारणेन मित्राभ्याम् इति
समीचीनं मित्रं मित्रे मित्राणि नपुंसकलिङ्गपदम् इति कृत्वा समीचीनं महोदय अग्रे
अग्रे हयाः हयाः एकवचन प्रथमविभक्ति बहुवचनं रूपं वा
हयः इति अश्वः
हयः इति अश्वः
अत्र अश्वाः इति बहुवचनरूपं
बहुवचन प्रथमविभक्ति बहुवचनरूपं तृतीयाभ्यक्तिरूपे हय्यैः
हयैः इति समीचीनं महोदय समीचीनम् अस्तु अग्रे उमा मीनाक्षी भगिनी अग्रे न सः मित्रे अपि हयाः कृतवान्
नार्यौ द्विवचनरूपम् अतः नारीभ्यां
शरौ
शरौ तत्रापि द्विवचनरूपमेव
समीचीनमस्ति भगिनि अस्तु अतः पुनर् अन्तिममपि भवती एव करोतु
ओके वज्रम् एकवचनरूपं वज्रेण
तत्र णत्वं किमर्थम्
णत्वं कारणं रकारः अस्ति
मध्ये बाधा अस्ति
मध्ये मा अतः पवर्गस्य कवर्ग पवर्ग आगच्छति चेत् नकारस्य मकारः भवति
कुत्र अस्ति मकारः
वज्रे
ओ क्षम्यतां रकारानन्तरम् अकारः अस्ति
केवलं स्वरः अस्ति समीचीनं भगिनि तत्र वज्र रकारस्य अनन्तरं वज्रेण इति पदम् अस्ति खलु भगिनि प्रथमतया वज्रे नकारः दन्तव्य नकारः अनन्तरम् एकारः अस्ति
एकारः
किन्तु तत् स्वरः अस्ति सः तु स्वरः अतः बाधा किमपि बाधा नास्ति अतः णत्वं भवति वज्रेण इति रूपं भवति समीचीनं भगिनि अस्तु अग्रे गच्छामः तर्हि पूर्णेन्द्र महोदय अग्रिम अभ्यासः कुर्मः वा अग्रिमपुटे
रेखाङ्कितान् शब्दान् अधिकृत्य यथोदाहरणं प्रश्नान् लिखत उदाहरणे दीयते ते पुष्पैः अर्चन्ति उत्तररूपेण ते कैः अर्चन्ति
इति
महोदय अधिकृत्य
तस्य आधारम् अधिकृत्य आधारेण अधिकृत्य अधिकृत्य आधारेण तत्र तत्र अधिकृत्य इति ल्यबन्तरूपम् अधिकरोति इति अधिकृत्य स्वीकरोति स्वीकृत्य आधारेण इति अर्थे
सामान्यतया सम्यक्तया अधि इति उपसर्ग अर्थ 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 किं परिवर्तनं करोति इति न
अधि इति अस्ति चेत् तत्र अर्थपरिवर्तनं भवति इति मन्ये. सत्यं भगिनि, हा, तत्र केवलं पोषणं न, हा सत्यं सत्यं, हा, अतः केवलं करोति इति न. रघुपतिमहोदय, भवान् क्या उक्तवान्
पुनरेकवारं? अहं त्वान्तरूपम् उक्तवान् आसीत्, दृष्ट्वा इति भवितुमर्हति इति.
हा अस्तु, हा दृष्ट्वा, हा दृष्ट्वा, हा तद् उपयुज्य इति, हा समीचीनं, हा अस्तु. पूर्णेन्दु महोदय,
अर्जुनः हस्ताभ्याम् अयुध्यत, तत्र हस्ताभ्यां द्विवचनरूपम् अस्ति. प्रश्ने काभ्याम् इति द्विवचनरूपम् आगच्छति. अर्जुनः काभ्याम् अयुध्यत,
हा इति समीचीनं महोदय. अत्र काभ्याम् इति, हा समीचीनम्. अत्र काभ्याम् इति एकनिमिषः, हा काभ्यां काभ्याम् अयुध्यत इति, तत्र काभ्याम् इति पदस्य विभक्ति का, न विभक्ति, न न क्षम्यतां महोदय, लिङ्गं का, लिङ्गं किं,
पुल्लिङ्गे,
हा तत्र हा तत्र काभ्यां
द्विवचने
काभ्यां, हा तत्र, हा तत्र किं भवति, तत्र काभ्याम् इति सर्वत्र भवति, पुल्लिङ्गे वा नपुंसकलिङ्गे वा अथवा स्त्रीलिङ्गे वा, हा विवचने काव्यामेव अस्ति, हा अस्तु समीचीनं महोदय. तत्र अयुध्यत इति रूपं किं, भूतकालरूपं, लङ्लकारः,
लङ्लकारे, लङ्लकारे प्रथमपुरुषद्विवचनरूपं,
न तत्र अर्जुनः इति कर्तृपदम्, अतः कर्तृपदं तु एकवचने अस्ति. एकवचनं, तत्र इदानीं लट् लकारे रूपं किं भवति,
लट् लकारे युध्यति,
युध्यते इति, हा तत्र आत्मनिपदि धातु, कर्मणि नास्ति महोदय, कर्मणि नास्ति, केवलं तत्र युध्यते इति, अयुध्यत इति अस्ति. वयं जानीमः खलु अचलत् इति अस्ति चेत् चलति अचलत्, किन्तु भाषते अभाषत इति अस्ति, हा अतः आत्मनेपदी दातु इति, हा युध्यते, प्रथमपुरुष एकवचनरूपं, समीचीनम् अस्तु.
अयुध्यत इति लङ्
लङ् सत्यं सत्यं भगिनि, सत्यं लङ्लकारः युध्यते इति अन्ते भवति, हा समीचीनं भगिनि सत्यं, हा परस्मै अस्ति चेत् तत्र अपठत् अगच्छत् इति, हा समीचीनं भगिनि, हा अस्तु. पूर्णेन्दुमहोदय अग्रे,
युद्धसङ्घाः स्तुतिभिः स्तुवन्ति,
हा
युद्धसङ्घाः किं महोदय,
सङ्घः, सङ्घः इत्युक्ते समूहः महोदय, सिद्धाः, सिद्धः इति यः सर्वं सिद्धि, हा ज्ञानी इति अर्थे, यः हा सर्वं सिद्धीकृतवान्, ज्ञानं वा बहु अतीतं कृतवान् सर्वं साधनेन, बहु सः बहु अग्रे गतवान् इति सिद्धिः, सिद्धः इति नाम भवति खलु, ते अतः सिद्धः, सिद्धानां सङ्घः, समूहः, समूहः, सङ्घः, समूहः, अतः सिद्धसङ्घाः सर्वे सिद्धाः मिलित्वा, मिलित्वा समूहः इति कृत्वा मिलित्वा ते स्तुवन्ति.
प्रश्ने तु तृतीयविभक्ति बहुवचनकरणे कैः इति पदम् आगच्छति,
कैः यदि यदि उत्तरं न जानीमः कैः इति एव अथवा केन इति सर्वदा भवति. यदि उत्तरं न जानीमः तत्र नपुंसकलिङ्गे एकवचने एव प्रश्नः भवति, अतः केन स्तुवन्ति इति. किन्तु अत्र उत्तरं जानीमः इति कृत्वा तत्र स्तुतिभिः इति तत्र वचनं किं स्तुतिभिः
बहुवचनं
बहुवचनम् अपि लिङ्गं किम् स्तुतिः प्रायः तिः अस्ति चेत् साधारणतया आधिक्यत आधिक्येन स्त्रीलिङ्गपदम् अस्ति महोदय. भक्तिः मतिः अतिथिः हा तत्र तकारन्त इकारः हा अस्ति चेत् आधिक्येन स्त्रीलिङ्गपदम् अस्ति महोदय. अतः स्तुतिभिः इति हा
येन स्तुवन्ति इति कर्तुं शक्यते वा येन इति
यदि 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 उत्तरं न जानीमः महोदय तत्र केन इति एव भवति तदेव भवति
केन इति भवति परन्तु
यदि यदि वयं लिङ्गं वचनं न जानीमः तत्र प्रश्नः सर्वदा केन इति भवति. किन्तु अत्र उत्तरं जानीमः तद् तस्य तद् दृष्ट्वा इदानीं तत्र प्रश्नवाचक पदस्य अपि उचितलिङ्गम् अपि वचनं वक्तव्यमस्ति अत्र.
महोदय मम आशयः मम प्रश्नः क्रियापदमपि एकवचने भवति बहुवचने करणे अशुद्धं न भवति
कुत्र
केन सुवन्ति
तत्र तु सम्बन्धः कुत्र अस्ति महोदय. क्रियापदस्य सम्बन्धः अस्ति वचनसम्बन्धः क्रियापदस्य वचनसम्बन्धः अस्ति केवलं कर्तृपदेन. स्तुवन्ति अस्ति चेत् अस्तु कर्तृपदं पदस्य वचनं बहुवचनम् इति भवति. किन्तु
सिद्धसङ्गाः स्तुत्या स्तुवन्ति इति अपि भवितुमर्हति
इति अपि भवन्ति केवलम् एका एव एकां स्तुतिम् एव स्तुति स्तुवन्ति इति अस्ति चेत् तत्र कति स्तुतयः इति स्तुतयः न नदी नद्यौ नद्यः क्षम्यतां तत्र मतिः मतौ मतयः मतयः स्तुतयः स्तुतयः इति
भवति
स्तुतयः कति स्तुतयः इति दृष्ट्वा अत्र रूपम् अस्ति खलु महोदय. तत्र एकमस्ति चेत् स्तुत्या द्वे अस्ति चेत् स्तुतिभ्यां बहु अस्ति चेत् स्तुतिभिः इति पूर्णेन्दु महोदय. अतः तत्र क्रियापदस्य कोऽपि सम्बन्धः नास्ति वचनसम्बन्धः एतेन पदेन तत्र स्तुतिभिः इति पदेन सह कोऽपि सम्बन्धः नास्ति वचनसम्बन्धः. समीचीनं वा तत्र तत्र बालकः पठति बालकः पुस्तकं पठति बालकः पुस्तकानि पठति तत्र द्वयमपि साधु खलु महोदय. समीचीनं वा अतः अत्र प्रश्नः कः अस्मिन् वाक्ये
बालकः पुस्तकं पठति
न सिद्धसङ्गाः स्तुतिभिः स्तुवन्ति इति तत्र प्रश्नः कः
सिद्धसङ्गाः
स्त्रीलिङ्गपदं बहुवचनम् अग्रिमे पुटे पश्यति चेत् तत्र रूपाणि दत्तानि सन्ति अग्रिमे पुटे
अत्र स्त्रीलिङ्ग् प्रश्नकर्तुं काभिः इति पदं योजयित्वा कर्तुं शक्यते.
समी सत्यं महोदय. अतः प्रश्नपूर्णवाक्यं वदतु महोदय.
सिद्धसङ्घाः काभिः स्तुवन्ति
इति बहु समीचीनमस्ति महोदय. अस्तु अग्रिमम्.
अग्रिमं सर्वविद् सर्वभावेन देवं भजति. सर्वविद् सर्वभावेन केन सर्वविद् केन देवं भजति
इति समीचीनम् अस्ति महोदय. तावदेव. अस्तु समीचीनम्. अस्तु अग्रे उमा मीनाक्षी भगिनी. शीतल भगिनी नमस्कारः. वयं पेज् 172 मध्ये स्मः. 172 मध्ये स्मः भगिनी. अस्तु उमा मीनाक्षी भगिनी अग्रे.
नयनतेयः चञ्च्वा नागान् भक्षयति.
वैनतेयः इत्युक्ते कः?
न जानामि.
गरुडः. गरुडः.
अच्छा ओके. वैनतेयः चञ्च्वा नागान्
भक्षयति.
चञ्च्वा एकवचनरूपं. स्त्रीलिङ्गमपि अस्ति. अतः कया.
कया इति. अस्तु
वैनतेयः कया नागान् भक्षयति.
चञ्चुः. चञ्चुः इति दृष्टवन्तः खलु तत्र चञ्चुः इति. बीक् इति बीक्. बीक् इति समीचीनं भगिनि. अस्तु अग्रे.
अग्रे ओके. वयं कर्णाभ्यां शृणुमः. अभ्याम् अस्ति चेत् काभ्याम्?
काभ्यां तत्र लिङ्गं न द्रष्टव्यं खलु अत्र. तत्र केवलं ना इति त्यक्त्वा काभ्याम् इति. वयं काभ्यां शृणुमः इति प्रश्नः भवति. समीचीनं भगिनि. अस्तु अग्रे.
अग्रे भक्ताः श्रद्धया भजन्ति. ओके. अत्र श्रद्धा. ओके. एकवचनरूपम्. कया पुनः कया भजन्ति
इति समीचीनं भगिनि. इदानीं तत्र पञ्चम अपि षष्ठः तयोः मध्ये तृतीयविभक्तिरूपम् अस्ति. कर्णाभ्याम् इति अस्ति. श्रद्धया अपि अस्ति. किन्तु तृतीयविभक्तेः प्रयोगस्य भेदः अस्ति. तत्र कः भेदः? कर्णाभ्यां वयं कर्णाभ्यां शृणुमः. अपि भक्ताः श्रद्धया भजन्ति. तत्र भेदः तृतीयविभक्तेः प्रयोगस्य भेदः कः? रूपं न. तत्र
साधनम् अस्ति.
श्रद्धया. तत्र श्रद्धा किं भवति? भावः.
भावः. ओके.
अतः भावः अपि तृतीयरूपेण भवति. भावः. अहं सन्तोषेण कार्यं करोमि. एतत् कार्यं कष्टेन कार्यं करोमि. तादृश तत्र श्रद्धया सन्तोषेण श्रद्धया इति तत्
यदा एक वाक्यम् एवम् अस्ति. कच्छपः मन्दं चलति. मन्देन चलति वा मन्दं चलति?
तत्र मन्दं चलति इति. तत्र 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 किमस्ति? तद् क्रियापदविशेषणम् अस्ति. अतः तत्र द्वितीयविभक्तिरूपम्. समीचीनं भगिनि. अस्तु अस्तु अग्रे रघुपतिमहोदय. अस्तु
गीतञ्जलिमध्ये आसम्. योधौ हयाभ्यां गच्छतः. योद्धौ काभ्यां गच्छतः.
काभ्याम् इति इदानीं जानीमः. तत्र किमपि चिन्तनीयं नास्ति. केवलं काभ्याम् इति. अग्रे महोदय.
भारतं धर्मेण शोभते. भारतं धर्मः. धर्म केन इति शोभते?
केन शोभते? तत्र ऋणत्वं भवति तत् समीचीनमस्ति खलु महोदय?
आं महोदय, मकार अस्ति तत् बाधा न करोति.
हा, पवर्गी अस्ति, समीचीनं महोदय. अस्तु, अग्रे
अग्रे खगाः पक्षाभ्यां के धयन्ते, पक्षाभ्यां काभ्याम् अत्रापि खगाः बहुवचनमस्ति, पक्षाभ्याम् इति द्विवचनमस्ति, काभ्याम् आकाशे डयन्ते.
हा, सर्वे जानन्ति खलु तत्र के इत्युक्ते किम् इति. गीताञ्जलि भगिनी, के इत्युक्ते किम् अत्र?
आकाशे.
हा, अस्तु. हा, तत्र प्रथमविभक्तिरूपं किम् अस्ति? के इति, के इति विभक्ति का?
कः, कौ, काः?
न न न, अत्र के वाक्ये महोदय, वाक्ये
के कयोः के.
अत्र सप्तमी.
सप्तमी, अत्र सप्तमी, के इति सप्तमी, आकाशे इति, अत्र के.
हा, के
न, तत्र खम् इति मन्ये, खम्.
हा,
खम् खम् इति मन्ये अत्र. तत्र ख, तत्र खे गच्छति इति कृत्वा खगः इति, आकाशे गच्छति इति कृत्वा पक्षी इति नाम खगः. डयन्ते
खगाः पक्षाभ्यां, खगाः इत्युक्ते पक्षी, पक्षाभ्याम् इत्युक्ते विङ्ग्स्.
हा, सत्यं. कुत्र डयन्ते? आकाशे डयन्ते, के ढयन्ते इति. अस्तु, समीचीनं. रघुपतिमहोदय अग्रे.
एकनिमिषं महोदय. अस्तु, यूयं यज्ञेन प्रसविष्यध्वम्. यूयं केन प्रसविष्यध्वम्?
हा, अस्तु महोदय. अस्तु, अग्रे गीताञ्जलि भगिनी.
महोदय,
प्रसविष्यध्वम् इत्युक्ते वाट्, प्रेग्नेंट्?
न न न, यूयं यज्ञेन प्रसविष्यध्वं, प्रस इति अस्ति इति कृत्वा वा भगिनि? हा, प्रायशः खलु, प्रसविश् द्रष्टव्यमस्ति भगिनि, अहं न जानामि. हा, प्रसविश्
कारणं दशरथः यज्ञं कृतवान्. तस्य वाट् इस् इट्, पत्न्याः प्रसूतितवन्तः, किमपि समवेयर लैक् दट्.
प्रसव इति अस्ति डेलिवरि इति, परन्तु अत्र यज्ञेन किमपि आगच्छति अतः एव
विष्यध्वम्. तत्र विष्यध्वम् इति प्रायशः यूयम् अस्तु, मध्यमपुरुषे अस्तु. प्रसविष्यति इति वा, प्रसविष्य, तत्र प्रायशः विष्यध्वम् अस्ति चेत् आत्मनिपदि धातुः अस्ति. प्रसविषते इति किमपि अस्ति वा? हा, द्रष्टव्यमस्ति भगिनि. प्रस, हा, अस्तु. हा, अग्रे गीताञ्जलि भगिनि.
ते रागद्वेषवियुक्तैः इन्द्रियैः विषयान् सेवन्ते. ते सेवन्ते, ते रागद्वेषवियुक्तैः इन्द्रियैः विषयान् ते कान् सेवन्ते, विषयान् सेवन्ते, कैः सेवन्ते, इन्द्रियैः सेवन्ते.
हा, अत्र सः एव प्रश्नः अत्र खलु.
सः एव प्रश्नः, किन्तु रागद्वेषवियुक्तैः इन्द्रियैः, द्वेषवियुक्तैः इति विशेषणम्.
हा, समीचीनं भगिनि. हा, समीचीनं. तत्र रागद्वेषवियुक्तः वियुक्तैः, वियुक्तम् इन्द्रियम् अथवा रागद्वेषवियुक्तानि इन्द्रियाणि, तस्य तृतीया रागद्वेषवियुक्तैः इन्द्रियैः ते विषयान् सेवन्ते. समीचीनं भगिनि. अग्रे
योगी अनन्यचित्ततया देवं स्मरति. योगी अनन्यचित्ततया कया देवं स्मरति?
तत्र माध्यमम् अस्ति वा भावः अस्ति वा अत्र?
अनन्यचित्ततया इति भावः.
तत्र अनन्यचित्ततया, तत्र अनन्यचित्तता इति प्रायशः अस्ति, तस्य भावः अनन्यचित्ततया इति. तत्र अनन्यचित्तता इत्युक्ते किम् इति किञ्चित् वदति वा?
अनन्यचित्ततया इत्युक्ते एकमात्र,
तत्र अन्य कोऽपि नास्ति. अन्य इति तस्य अन्य नास्ति इति अन् अन्य.
ओ इति
वा? अन् अन्य. अन्य मास्तु, अन्य नास्ति इति अन् अन्य. अन्यचित्ततया एकत्र कृत्वा, तत्र चित्तम् एकाग्र, चित्तस्य एकाग्रतम् तादृशचित्तेन अथवा चित्तम् इति, प्रायशः चित्तम् इति अस्ति इति मन्ये. एकाग्रतया इति देवं स्मरति. कान्सन्ट्रेशन् इति, वन् पायिण्ट् कान्सन्ट्रेशन् तादृश अर्थे. अनन्यचित्ततया देवं स्मरति. समीचीनं भगिनि. अग्रे
अर्जुनः शिष्यभावेन कृष्णं पृच्छति. शिष्यभावेन केन?
अर्जुनः. अतः वाक्य प्रश्न, वाक्यं प्रश्नः भवति.
अर्जुनः केन कृष्णं पृच्छति?
समीचीनं भगिनि. अस्तु, समीचीनम् अस्तु. अग्रे शीतल भगिनी वक्तुमिच्छति वा?
आं महोदय.
तत्र सूर्यकुमारी भगिनी नमस्कारः. अस्तु, शीतल भगिनी
विलम्बेन आगामि.
चिन्ता मास्तु भगिनि. अस्तु, शीतल भगिनी वदतु भगिनि.
वयं राज्यसुखलोभेन स्वजनं हन्तुम् उद्यताः स्मः. राज्यसुखलोभेन केन?
अतः प्रश्नः भवति, वयं
केन स्वजनं हन्तुम् उद्यताः स्मः?
तत्र उद्यतः इत्युक्ते किम् इति जानाति वा? उद्यतः
उद्यम परिश्रम.
उद्यतः इति रेडी इति, सिद्धः इति, सिद्धः तत् कर्तुं सिद्धः.
उत्सुक्तः न भवति वा तत्र? उत्सुक्तः.
उत्सुक्तः, उत्सुक्तः, एक्सैट्, इण्ट्रेस्टेड्, एक्सैटेड्, रेडी इति. सत्यं भगिनि, उत्सुक्त. पुनः एकवारं वदतु, उत्सुक्तः इति खलु.
महोदय, प्रश्नमेकम् अस्ति. तत्र राज्य सुख लोभेन एकवचनरूपं लोभैः भवितव्यं न? कारणं राज्यम् अस्ति, सुखम् अस्ति, लोभः अस्ति.
न, तत्र विषयत्रयमिति नास्ति. तत्र लोभम् अस्ति, कीदृशलोभं? सुखस्य लोभं. कीदृशसुखस्य लोभं? राज्ञसुखस्य, राज्ञसुख न, राज्यस्य, राज्यस्य सुखस्य लोभः इति. अतः विशेषणद्वयमस्ति भगिनि तत्र.
समासः अभवत् राजसुखलोभः इति, लोभः राजसुखलोभः.
षष्ठी कर्मधारयसमासः द्विवारम् इति. अतः तत्र राज्यम् अवश्यं, सुखम् अवश्यं, लोभम् इति तादृशः नास्ति अत्र. भिन्नाः न, किन्तु लोभः कीदृशलोभः? सुखलोभः. कीदृशसुखलोभः राज्यसुखलोभः इति.
परन्तु महोदय तत्र लोभैः इति वयं वदामः, तत् किमपि तत्र क्लेशः न भवति खलु?
क्लेशः न भवति, क्लेशः न भवति, सत्यं महोदय. तत्र तत्र वयम् इति अस्ति, अतः तत्र लोभः, लोभस्य रूपं प्रत्येक पुरुषे भिन् भिन्नः भवति खलु. अतः लोभैः सर्वैः सर्वेषु लोभः अस्ति इति कृत्वा तत्र लोभाः सन्ति इति वक्तुं शक्नुमः.
अतः वयं
किं भगिनि
प्राप्तं वा
लोभः अत्र न लभते इति न. लोभः इत्युक्ते तस्य लोभः तत्र किं षड् ग्रीड् इति तत्र षड् वैर किं वैरिः वैरयः सत्यं वा तत् वैरिः तत्र कामक्रोधलोभ मात्सर इति अस्ति तत् तद् सः लोभः अत्र
लुब्धः
यस्मिन् लोभः अस्ति सः लुब्धः. वदतु भगिनि.
महोदय अहं न अवगच्छामि तत् वाक्यस्य अर्थः कः.
तत्र वाक्यम् अस्ति भयं, भयम् उद्यताः स्मः इत्युक्ते वयं सिद्धाः अथवा उत्सुकः किमपि कर्तुं किमपि कर्तुं अस्मासु उत्साहः अस्ति.
परन्तु
एकनिमिष, उत्साहः इति अवगच्छति खलु? उत्साहः अस्मासु उत्साहः अस्ति किं कर्तुं तत्र स्वजनं हन्तुं स्वजनं हन्तुम् उत्साहः अस्ति किमर्थम् राज्यसुखं प्राप्नुमः राज्यसुखम् इच्छामः बहु इच्छामः इति मनसि आशा तत्र आशा अस्ति राज्यसुखस्य आशा अस्ति
किन्तु तत्र तृतीया वा चतुर्थी वा
न तत्र अहं पृष्टवान् किमर्थम् इति किन्तु केन कारणेन इति तदपि भवति तत्र कारणतृतीया अपि भवति कस्मात् कारणात् अथवा केन कारणेन अपि वक्तुं शक्नुमः इति मन्ये किन्तु अत्र लोभेन तत्र लोभः अस्ति इति कृत्वा तत्र लोभेन स्वजनं हन्तुम् उद्यताः स्मः
अर्जुनः वदति खलु महोदय
सत्यं सत्यं
अर्जुन एव सिद्ध नास्ति
तत्र
चिन्तवान्
प्रायशः प्रथमं सः एतादृशं उक्तवान् इति मन्ये खलु एतत् कुर्वन् स्मः किन्तु एतत् कर्तुं न इच्छामि इति
श्रीकृष्णस्य वार्ता
तस्य
पश्चात् सः
किन्तु तत्र तत्र युद्धं कर्तुम् उद्यतः आसीत् किन्तु राज्यसुखलोभेन इति कारणेन न भिन्नकारणेन
अस्तु अत्र इति वाक्यं दुर्योधन वदति वा
न एतत् सः एव प्रायशः उक्तवान् किन्तु तत्र पूर्वं तस्य स्थितिः एतादृशी आसीत् सः वदति वयम् एतद् कर्तुम् उद्यताः स्मः किन्तु एतत् समीचीनं नास्ति खलु इति अतः अहं न योद्धुं न इच्छामि इति सः उक्तवान् तदनन्तरं सः युद्धं कृतवान् किन्तु परिवर्तनम् आसीत् कारणं किमर्थं युद्धं करणीयम् इति तत्र यत् कारणमस्ति तस्य तद् भिन्नं कारणम् आसीत् खलु इदानीम्
अत्र महोदय यदि चतुर्थी अस्ति तदेव समीचीनं न राज्यसुखलोभाय
तदपि भवितुम् अर्हति अथवा लोभात् अपि तदपि वक्तुं
तत्
प्राप्नुमः इति. हा तत्र किमर्थं तत् एतत् लाभः भवति इति, हा तत्र एतत् फलं भवति इति चतुर्थीरूपं भवति, अथवा एतद् कारणमिति कृत्वा तत्र कारणपञ्चमी अपि भवति, अतः तत्र विकल्पः अस्ति रूपस्य. हा अस्तु अस्तु, तर्हि अग्रे शीतल भगिनी.
अग्रे सरन्?
हा अग्रे भगिनी. हा सत्त्वगुणः,
सत्त्वगुणः सुखज्ञानसङ्गाभ्यां जीवं देहे बध्नाति.
हा
सुखज्ञानसङ्गाभ्यां काव्यम्.
हा काव्यम् इति.
सत्त्वगुणः काव्यं जीवं देहे बध्नाति.
न पुनः एकवारं वदतु भगिनि भवत्याः वाक्यं.
सत्त्वगुणः काव्यं जीवं देहे बध्नाति.
बध्नाति बध्नाति जीवं देहे, देहे अस्ति तत्र बध्नाति. देहे सत्त्वगुणः जीवं बध्नाति. कुत्र बध्नाति? देहे बध्नाति. काभ्यां बध्नाति? सुखज्ञानसङ्गाभ्यां बध्नाति. तत्र माध्यमम् अस्ति. हा तत्र रज्जुना बन्धनं कुर्मः खलु साधारणतया, किन्तु अत्र किमस्ति? सुखज्ञानसङ्गाभ्यां बन्धनं भवति. तत्र ताभ्यां जीवं देहे बध्नाति. कः बध्नाति? सत्त्वगुणः बध्नाति. हा सत्त्वगुणः बध्नाति, जीवं बध्नाति इति. अस्तु समीचीनम्. अस्तु अग्रे सूर्यकुमारी भगिनी.
हा महोदय. दैवी सम्पदा मोक्षः.
सम्पदा सम्पदा
दैवी सम्पदा मोक्षः अस्ति. दैवी सम्पदा,
हा तत्र प्रायशः तत् सम्पत् इति
सम्पदा,
हा सम्पदा इति. एतादृशरूपं वयं न दृष्टवन्तः अत्र इति मन्ये.
खलु
भवता इति रूपं तादृश अस्ति. तत्र हलन्तपदम् अस्ति, किन्तु तत्र सम्पत् इति प्रायशः स्त्रीलिङ्गपदम् इति मन्ये. तत्र सम्पत् इति सम्पत्ति इति तत्तु सम्पत्ति सम्पत्तिः अस्ति चेत् सम्पत्ति अस्ति चेत् भगिनी तत्र इकारान्त मति शब्दवत् भवति खलु, अतः तृतीया भवति सम्पत्या इति मथ्या अथवा इति भवति खलु मथ्या इति. अहं चिन्तयामि एतत् स्त्रीलिङ्गपदं तकारान्तस्त्रीलिङ्गपदम् इति सम्पत् इति. एकनिमिष भगिनि.
आं महोदय सम्पद् सम्पद् दकारान्तस्त्रीलिङ्ग अस्ति.
सम्पद् इति अस्ति खलु सम्पद् दकारान्त. क्षम्यताम् अहं तकारान्त इति उक्तवान्, किन्तु दकारान्तपदं भगिनि. हा दकारान्त सम्पद्. हा हलन्तपदम् अस्ति. अग्रिमे भागे एतत् पश्यामः. अतः तत्र सम्पत् सम्पदौ सम्पदः सम्पदा सम्पद्भ्यां सम्पद्भिः इति भवति. हा दकारान्त स्त्रीलिङ्गपदं
तकारान्तपुल्लिङ्गवत् भवत् शब्दवत् अस्ति रूपं सर्वं.
हा 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 किञ्चित् सत्यं महोदय, सत्यं सत्यं महोदय. हा किन्तु एतत् अग्रे आयाति तत्र अग्रिमे भागे गीतासोपनिषे. वयं तु एतस्य भागस्य समाप्तिः तस्य समीपं स्मः खलु. हा अस्तु अग्रे भगिनि.
तमोगुणः प्रमादालस्य निद्राभिः.
ओ क्षम्यतां भगिनि, तत्र प्रश्नः उक्तवती वा तत्र
केन मोक्षं सिद्ध्यति?
न न न, सम्पद् इति स्त्रीलिङ्ग, तकारान्त स्त्रीलिङ्गपदम्. हा अग्रिमे पुटे पश्यतु, तत्र खया इति, खा इति पदस्य
मोक्षः
सिद्ध्यति, खया मोक्षः सिद्ध्यति. समीचीनं, हा अस्तु अग्रे.
तमोगुणः प्रमादालस्य निद्राभिः जीवचैतन्यं बध्नाति.
बध्नाति जीवचैतन्यं बध्नाति. तत्र सत्त्वगुणः जीवं बध्नाति, सुखज्ञानसङ्गाभ्यां जीवं देहे बध्नाति. इदानीं तमोगुणः अपि जीवचैतन्यं बध्नाति, किन्तु
प्रमादालस्य निद्राभिः.
हा तत्र प्रश्नः कं किं भवति? बिहि अस्ति चेत् तत्र अन्तिमम् अस्ति निद्राभिः इति, तत्र केवलं निद्राभिः इति स्वीकरोतु, तत्र रूपं किम् अस्ति निद्राभिः?
निद्राभिः
प्रथमाविभक्ति एकवचनरूपं किं किम् अस्ति?
निद्रा.
लिङ्गं किं, लिङ्गं किं?
स्त्रीलिङ्गं.
हा आकारान्त स्त्रीलिङ्ग निद्रा शब्दः. हा काभिः, हा अतः वाक्यं भवति, प्रश्नः भवति
काभिः.
हा तमोगुणः
काभिः जीवचैतन्यं बध्नाति.
बध्नाति बध्नाति. तत्र प्रमाद आलस्य निद्राभिः इति, तत्र प्रमाद इति जानन्ति वा? प्रमादः इत्युक्ते किम् इति?
एक्सिडेण्ट्.
एक्सिडेण्ट् मिस्टेक्.
हा केर्लेस्नेस्.
नेग्लिजेन्स्.
हा प्रमादः आलस्य निद्रा, तत्र विषयत्रयम् अस्ति, अतः बिः इति बहुवचनरूपं. तत्र निद्राभिः अस्ति, तत्र यदि तत्र क्रमस्य परिवर्तनं कुर्मः, तत्र निद्रा प्रमादालस्य इति, तत्र रूपं किं भवति? निद्रा प्रथमं भवति, तदनन्तरं प्रमादः, तदनन्तरम् आलस्यं. न न न, निद्रा प्रमादैः, निद्रा प्रमाद आलस्यैः इति भवति. तत्र प्रश्नः भवति कैः इति, इति अतः तत्र अन्तिमपदस्य एव तत्र लिङ्गं भवति इति कृत्वा तत्र निद्रा अस्ति इति स्त्रीलिङ्गपदं भवति.
किमर्थम् आलस्य इति बहुवचनं महोदय, किमर्थम् एकवचनं नास्ति अत्र?
आलस्य, आलस्य इति एकवचनमेव अस्ति, आलस्यं.
तदनन्तरम् आलस्य इत्युक्ते
लेज़ि.
आं महोदय, आलस्यम् इति नपुंसकलिङ्ग.
आलस्य आलस्यम् इति चिन्तयामि नपुंसकलिङ्गपदमेव इति भगिनि, किन्तु
केन?
न न न, तत्र तत्र अहं चिन्तितवान्, अत्र विषयत्रयमस्ति खलु भगिनि, तत्र प्रमादः अस्ति, आलस्यम् इति अस्ति, तदनन्तरं निद्रा अस्ति. यदि तत्र क्रमपरिवर्तनं कुर्मः, यस्मिन् क्रमे दत्तमस्ति तद् मास्तु, अन्यत् क्रमेण, अन्येन क्रमेण वदामः, प्रथमं निद्रा भवतु, तदनन्तरं प्रमादः, तदनन्तरम् आलस्यम्.
आलस्य अकारान्तपुल्लिङ्गशब्दमपि अस्ति खलु?
आलस्यम्, आलस्यं नपुंसकलिङ्गपदम्. आलस्यम् इति, आलस्यं नपुंसकलिङ्गपदम् अस्ति भगिनि, आलस्यम्. अतः तत्र केवलम् आलस्यम् अस्ति चेत् आलस्येन, किन्तु अत्र किम् अस्ति? निद्राप्रमादालस्यैः इति भवति. समीचीनं वा भगिनि इदानीम्?
माद इत्युक्ते महोदय
महोदय तत्र यत्र उपसर्गं यदा स्वीकुर्मः तदा तस्य अर्थः भिन्नः भवति. मद प्रयोग मद इति अस्ति, अतः प्रमाद इति. घञ् इति अस्ति रामः, रम योग घञ् राम इति, तदेव प्रमाद इति. अर्थः भिन्नः भवति
गीताञ्जलि भगिनी. इदानीं समीचीनं वा?
समीचीनं महोदय.
हा, तत्र केवलम् आलस्यम् इति न, विषयत्रयम् अस्ति, अतः अन्ते आलस्यं स्थापयामः इति कृत्वा तत्र आलस्यैः निद्रा प्रमाद आलस्यैः, अथवा निद्रा आलस् निद्रालस्य प्रमादैः इति.
एतत् समासः वा सामान्य?
अत्र त्रयम् अस्ति, तत्र प्रायशः द्वन्द्वसमासः इति तादृश तादृश तत्र समूहस्य समासः.
ओके, तदनुगुणं राज्यसुखलोभेन तत्र अपि बहुवचनमेव
भवितुमर्हति भगिनि. तत्र तत्र सत्यं, किन्तु अस्मिन् सन्दर्भे तादृशः नास्ति. सत्यं सत्यं, अत्र यथा वयं जानीमः तत्र पदमस्ति चेत् पदस्य एकः अर्थः एव इति नास्ति खलु. सन्दर्भानुगुणम् अर्थभेदः भवति, भिन्नभिन्नाः अर्थाः सन्ति खलु एकपदस्य एकस्य पदस्य खलु. अतः
तत्र
न एतत् प्रश्नः तु समीचीनमेव अस्ति भगिनि. अतः एव तत्र पश्यतु, तत्र काव्ये तत्र यदि दीर्घपदम् अस्ति चेत् तत्र बहु तत्र चर्चा भवति, तत्र कीदृशसमासः अत्र कृतः अस्ति इति बहु किमपि बहु चर्चा भवति. तत्र समासस्य एतादृशसमासः स्वीकुर्मश्चेत् एषः अर्थः भवति, तत्तु समीचीनं नास्ति, अहम् एषः समासः इति मन्ये, अतः एषः अर्थः भवति इति तादृशः भवति. किन्तु अत्र गीताप्रवेशमपि वयं दृष्ट्वा वक्तुं शक्नुमः. तत्र गीताप्रवेशः इति अग्रे अस्ति खलु पुस्तकं, तत्र एतद् दृष्ट्वा अथवा भगवद्गीतायाः किमपि टीका पश्यन्तु, अहं चिन्तयामि एतत्तु तादृशद्वन्द्वसमासः नास्ति, किन्तु कर्मधारयसमासः एव इति. तत्र राज्यसुखलोभेन इति किं भगिनि?
एकं वदामि महोदय, अत्र प्रमाद आलस्य अपि च निद्रा त्रीणि
विषयत्रयम्
अस्ति, अपि च अत्र सूची अस्ति, किन्तु राज्यसुखलोभेन तत्र सूची नास्ति.
सूची इत्युक्ते
लिस्ट् त्री थिङ्ग्स्.
अस्तु तत्र
सूची नास्ति, अत्र सूची अस्ति.
किन्तु उमा मीनाक्षी भगिनी चिन्तयति तत्र राज्यम् अस्ति, सुखम् अस्ति, लोभः अस्ति इति, सूची अस्ति इति. कथं निर्णेतुं शक्नुमः?
कथं निर्णेतुं सम्यक् न भवति महोदय. तत्र वयं राज्येन स्वजनं हन्तुम् उद्यत स्वजनं हन्तुम् युद्धता न भवति, लोभेन एव भवति. कस्य लोभेन? राज्यसुखलोभेन इति भवति. तत्र अत्र तमोगुणः प्रमादेन जीवचैतन्यं बध्नाति अथवा आलस्येन तत् समीचीनं भवति. निद्रया जीवचैतन्यं बध्नाति, तत् समीचीनं भवति. अतः तत्र समाहारद्वन्द्वं न भवति, राज्यसुखलोभेन एव भवति.
उमा मीनाक्षी भगिनी किं चिन्तनम्?
ओके,
प्रश्नः तु आवश्यकः अस्ति. समीचीनमेव अस्ति भगिनी. अग्रिमे भागे यदि वयं तत्र गीतासोपानस्य एव इति अथवा न क्षम्यतां, गीताप्रवेशस्य प्रथमभागे तत्र एका कथा अस्ति, बहु समीचीना कथा अस्ति. तत्र रामेश्वरः इति पदस्य कः समासः इति विषयः भवति. बहु समीचीनम् अस्ति. राम राम रामेश्वरः इति पदं समासपद तत्र समासः अस्ति इति जानीमः, किन्तु कीदृशसमासः इति बहु सम्यक् चर्चा अस्ति तत्र. बहु बहु सुन्दरं सुन्दरी कथा अस्ति तत्. अग्रे अग्रे पठामः. अस्तु,
बहु समयमस्ति.
यदि यदि प्रश्नः पृच्छन्ति चेत् बहु शीघ्रं भवति. प्रश्नः अस्ति चेत् सन्देहस्य संहारणं, सन्देहः नास्ति चेत् अग्रे गन्तुं शक्नुमः. यदि प्रश्नः नास्ति चेत् अस्तु अहं चिन्तयामि एतत् समीचीनं न जानामि, अहं न प्रष्टुम् इच्छामि इति, अतः सन्देहः मनसि एव तिष्ठति, अतः अग्रे गन्तुं विलम्बः भवति. अतः प्रश्नः समीचीनः. न न तादृश नास्ति समयस्य, एतादृश तादृशः दृश्यते किन्तु तादृशः नास्ति.
धन्यवादः.
तत्र एकं पठितवान् आसीत्, तत् महाभाष्ये एव अस्ति. बृहस्पतिः इन्द्रं व्याकरणं बोधयति एकसहस्र दिव्यवर्ष, तथापि पूर्णा न भवति. एकसहस्र दिव्यवर्ष, एकवर्ष मानवानाम् एकवर्षः तेषां देवानाम् एकदिनः अस्ति.
सत्यं सत्यं महोदय. अतः तत्र तु पश्य तत्र केवलं पदसङ्ग्रहः, तस्य एकस्य अनन्तरं वक्तुमिच्छामश्चेत् एव तत्र वयं सर्वाणि पदानि न ज्ञातुं शक्नुमः खलु. अतः अतः यत् वदतु भगिनि
महोदय, प्रेषयतु कृपया.
किम्
महाभाष्ये अस्ति तत् अहं दृष्टवान् आसीत् तत् श्लोकं.
प्रेषयतु महोदय.
एवं श्रूयते इति सः अपि तदेव उक्तवान् आसीत्.
समीचीनं महोदय. अतः विलम्बः नास्ति भगिनि, उमा भगिनि.
महोदय अहं तत्र हैदराबाद् मध्ये संस्कृत एक रिसर्च् इन्स्टिट्यूट् अस्ति खलु हैदराबाद्, एक कृतवान् आसीत् कति शब्दाः भवन्ति इति, एतान् सर्वान् लकारान् उद्दिश्य सः कृतवान् आसीत् केल्क्युलेशन्. 24 लाख करोड् शब्दाः भवन्ति संस्कृते. मिनिमम् 24 लाख करोड् शब्दाः.
सत्यं सत्यं महोदय, सत्यं.
ओके, अन्यभाषायां न भवितुमर्हति.
तदेव शब्दकोश नास्ति.
अतः तत्र विस्तारः तादृशः अस्ति, किं कुर्मः.
इत्युक्ते कति शून्य अहं न जानामि.
प्रायशः 11 शून्याः इति मन्ये भगिनि.
अस्ति वा?
हा, तत्र इति क्रोर् इत्युक्ते तु क्रोर् इत्युक्ते किं तत्र 5 शून्याः.
पञ्चलक्षं.
क्षम्यतां. हा हा हा, तत्र सप्त अधिक पञ्च, अतः 12 शून्याः.
परन्तु प्रतिदिनं नूतनशब्दाः अपि
आगच्छन्ति. सत्यं भगिनि, आगच्छन्ति. अतः तत्र तत्र किं
इन्फिनिटि.
सत्यं सत्यं सत्यं.
संस्कृतभाषा एषा भाषा अस्ति न, यत्र नूतननिर्माणं बहु सरलम् अस्ति.
अतः तत्र वयं किमपि तत्र प्रश्नः एतादृशप्रश्नः प्रष्टुं शक्नुमः. तत्र नदी अस्ति खलु, सर्वे वदन्ति अहं नदीं दृष्टवान् अथवा दृष्टवती इति. सर्वे नदीं दृष्टवन्तः खलु, किन्तु पूर्णतया नदीं द्रष्टुं शक्नुमः वा?
कदापि न.
हा, तादृश एव भाषाया भाषा नदीवत् अस्ति इति चिन्तयतु. तत्र पूर्णतया वयं कदापि द्रष्टुं न शक्नुवन्तः. तदेव, तत्र प्रवाहः अस्ति. तत्र किं, तत्र भगवद्गीतायाः किम् आसीत्, तत्र किं रघुपति महोदय, तत्र ड्राप् इति आसीत् खलु, किम् अस्ति तत्र? वयं गतवर्गे दृष्टवन्तः खलु तत्र भजगोविन्दस्य श्लोके, तत्र कुत्र आसीत् तत्, कोऽपि स्मरति वा? गङ्गा किञ्चित् अतीतं, गङ्गा किमपि अस्ति. अस्तु तर्हि, अस्तु, विषयान्तरं मास्तु. अग्रे गच्छामः. तत्र सूर्यकुमारी भगिनी, भवती
राज्यसुखलोभेन विशेषविशेषभावः अस्ति.
हा, सत्यं भगिनि, सत्यं सत्यं सत्यं. हा, कीदृशः 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 लोभः, सुखस्य लोभः इति. हा, सत्यं भगिनि, सत्यं, समीचीनं, सः एव अर्थः अत्र, सत्यम्. अस्तु, सूर्यकुमारी भगिनि अग्रे.
आशापाशचतैः बद्धाः अन्यायेन
अर्थसञ्चयान्
सञ्चयान् ईहन्ते. आश अपाश शतैः, शतसङ्ख्या महोदय,
शत शत इति सङ्ख्या,
शतैः बद्ध्वाः ते बद्ध्वाः अन्यायेन अर्धसञ्चयान् ईहन्ते. आशापाशशतैः
बद्धाः तत्र
अन्यायेन अन्यविषयेण
अन्यायेन, न्यायं तत्र नास्ति इति,
अन्यायेन अन्यायेन
अर्थसञ्चयात्
नकार यान्.
ओ, क्षम्यताम्, अर्थसञ्चयान्. आमामाम्, अर्थसञ्चयान् ईहन्ते.
केन
केन, किमर्थं केन? शतैः इति अस्ति, तत्र वचनं किम् अस्ति?
ओ, शतैः बहुवचनं.
हा, अतः किं भवति तत्र?
ओ, शतैः कैः.
हा, कैः बद्धाः
अन्यायेन
अर्थसञ्चयान् अर्थसञ्चयान् ईहन्ते.
तत्र इत्युक्ते किं
किं भगिनि?
ईहन्ते,
ईहन्ते इत्युक्ते अटेम्प्ट् इति, प्रयत्नं कुर्वन्ति इति.
ओ, प्रयत्नं कुर्वन्ति, ओके.
ईहन्ते, अटेम्प्ट्
धातु किं तत्र?
ईहन्ते प्रायशः तत्र ई धातु,
ई केवलं ई, ईह न,
ईह तत्र ई हकारः,
हकारः हलन्तः,
किन्तु तत्र तदनन्तरं स्वरः नास्ति. इह् इह् धातुः,
इह् वा ईह्?
इह्, क्षम्यतां भगिनि, दीर्घ इकारः, दीर्घ इकारः, दीर्घ इकारः. तत्र अटेम्प्ट् अथवा प्रयत्नं कुर्वन्ति अथवा प्राप्तुम् इच्छन्ति इति, तादृश अर्थे. अर्थसञ्चयान् सञ्चयान् इत्युक्ते तत्र न तत्र सञ्चयान् इत्युक्ते समूहः अथवा केवलं तत्र पुस्तकभण्डारः अस्ति खलु तत्र तादृश अर्थभण्डारः आशापाशतैः बद्धाः न ईश् दातु ईश् दीर्घ ईकारः तदनन्तरं हकारः ईश् दातु तत्र इङ्ग्लिश् मध्ये आङ्ग्लभाषायाम् ऐ हेट् इति तदेव ईहते इति शतैः आशा अस्ति आशा इति पाशः अस्ति केवलम् एकः पाशः न पाशशतम् अस्ति पाशः पाशः आशा इति तादृश आशापाशः केवलम् एकः आशा इति नास्ति प्रत्येक आशा एकं एकः पाशः भवति अथवा पाशं भवति तत्र पाशम् इति नपुंसकलिङ्गे अस्ति इति मन्ये पाशं पाशं प्रत्येक एका एका आशा एकं पाशं भवति तत्र एका एव आशा नास्ति
बहूनि
अनेकाः आशाः सन्ति इति कृत्वा आशा पाशशतं तैः शतैः बद्धाः तत्र बद्धाः कैः बद्धाः तत्र शतैः बद्धाः तादृशः बद्धाः आशा अस्ति तेषां मनसि अतः ते किं कुर्वन्ति अर्थसञ्चयान् ईहन्ते इति तत्र बहु किं भगिनि
कर्तृपदम् अत्र किं कर्तृपदं
पश्यामः तत्र क्रियापदं किम् अस्ति
क्रिया ईहन्ते
अस्ति इति अस्ति अस्तु इदानीं प्रथमपदस्य विभक्ति का
तत्र तु तृतीया
अस्ति द्वितीयपदस्य विभक्ति का
तत्र प्रथमा बहुवचन
बहुवचनम् अस्तु तृतीयपदस्य
अपि च तृतीया विभक्ति
अस्तु अपि चतुर्थपदस्य
तत् कर्मपदम्
अतः किम् अस्ति तत्र कर्तृपदम्
बद्धाः किन्तु
बद्धाः ईहन्ते किम् ईहन्ते अर्थसञ्चयान् ईहन्ते
किन्तु बद्धाः कथम् ईहन्ते न अवगच्छामि
ईहन्ते अटेम्प्ट् बद्धाः सर्वे जीवाः बद्धाः एव खलु भगिनि तदेव अस्ति खलु तदेव अस्ति खलु तत्र पूर्वमपि दृष्टवन्तः खलु तमो गुणः बध्नाति सत्त्वगुणः बध्नाति अतः जीवः तु बद्धः जीवः बद्धः अस्ति खलु अतः बद्धाः इत्युक्ते जनाः अथवा जीवाः इति अस्तु अन्तिमं सूर्यकुमारी भगिनी
महोदय पाश इत्युक्ते किं
पाशः रज्जु तत्र किमस्ति अश्वं केन अश्वं ग्रहीतुं शक्नुमः रज्जुः अस्ति खलु रज्जुना पाशं कृत्वा वयम् अश्वं अश्वस्य बन्धनं कर्तुं शक्नुमः
तदस्ति
अत्र आशा अस्ति पाशमस्ति आशा इति समीचीनम् अस्तु अग्रे भगिनि
ईश्वरः यन्त्ररूढानि
यन्त्रारूढानि
सर्वभूतानि मायया भ्रामयति
ईश्वरः किमस्ति कर्तृपदं वा अत्र ईश्वरः
कर्तृपदम् ईश्वरः महोदय.
ईश्वरः कर्तृपदम् ईश्वरः. अस्तु, अतः तत्र प्रश्नवाचक किं भव प्रश्नः कः अत्र? ईश्वरः
कया.
कया, समीचीनं भगिनि.
माया स्त्रीलिङ्ग एक माया भ्रामयति प्रेरणार्थक क्रियापदम्.
सत्यं सत्यं सत्यं. भ्रामयति इत्युक्ते किम् अस्ति?
भ्रम.
भ्रमां करोति, तत्र भ्रामयति इति. तत्र मनसि क्लेशः भवति, सन्देहः भवति, तत्र भ्रमा भवति. मायायाः प्रभा अस्ति खलु तत्र. मायायाः शक्तिः. अतः एव वयं सर्वे बद्धाः स्मः खलु. तत्र ईश्वरः भ्रामयति सर्वान् सर्वभूतानि, केवलं मनुष्यः इति न, सर्वभूतानि भ्रामयति मायया. यन्त्ररूढानि सर्वभूतानि. विशेषणमस्ति सर्वभूतानि इति. तत्र सर्वभूतानि किं भवति? तत्र कर्तृपदमस्ति ईश्वरः, माया इति तृतीयविभक्तिः अस्ति, भ्रामयति इति क्रियापदमस्ति, सर्वभूतानि इति पदस्य विभक्ति का?
बहुवचनं.
न विभक्ति
सर्वभूतानि
कर्म. कर्मपदमस्ति, अतः विभक्ति अस्ति द्वितीयविभक्ति. यन्त्रारूढानि सर्वभूतानि.
यन्त्ररूढानि
यन्त्रारूढानि
आरूढानि
आरूढानि इत्युक्ते
यन्त्रारूढानि सर्वभूतानि भ्रामयति.
यन्त्ररूढानि अर्धं कर्म
तादृशं भवितुम् अर्हति. सत्यं भगिनि. तत्र इन्द्रियेण इन्द्रिय तादृश अर्थः समीचीनमस्ति भगिनि. अस्तु, धन्यवादः.
भ्रामयति भ्रमणं कारयति. तदपि भवितुम् अर्हति खलु
भ्रमणं.
भ्रमणम् आरूढः अस्ति, यन्त्रे आरूढः अस्ति.
ओ अस्तु, समीचीनं महोदय. अस्तु अस्तु अस्तु. सत्यं. यथा कुलालः
धावति,
यथा कुलालः तत्र घटस्य निर्माणं करोति चक्रस्य भ्रमणेन, चक्रं भ्रामयति, तादृश ईश्वरः सर्वभूतानि यन्त्ररूढानि सर्वभूतानि मायया भ्रामयति इति.
अश्वस्य पुरतः बध्नाति खलु किमपि सस्यान् धावति तत् खादितुं.
सत्य सत्यं महोदय. तत्र तत्र तस्य नाम अस्ति. अस्तु अस्तु अस्तु. तत्र वयं दृष्टवन्तः तत्र. तत्र अस्ति महोदय. अस्तु, अहं पूर्वे एव आसीत् तत् तत् किन्तु. अस्तु
महोदय, अत्र यन्त्रारूढानि इति विशेषणम् अस्ति, सर्वभूतानि इति विशेष्यम् अस्ति.
सत्यं भगिनि, सत्यं सत्यं भगिनि. सत्यं महोदय. तत्र प्रग्रहम् इति प्रग्रहम् इति तद् भवति रैन् इति आङ्ग्लभाषा. तत्र प्रग्रहम् इति पूर्वम् आसीत् तत्र गीतासोपने एव पूर्वम् आसीत् एतत्. अस्तु, एतदेव भवति, पश्यामः तदनन्तरं किम् आसीत् इति चिन्तनं भवति. अस्तु, अग्रे किम् अत्र पूर्णेन्दु महोदय पुनः आरम्भं करोति वा अग्रिम अभ्यासः?
अग्रिम अभ्यासः इत्युक्ते प्रश्नसङ्ख्या
अग्रिम 173 मध्ये
172
तत्र भगवद्गीतायाः श्लोकं दृष्ट्वा तत्र तृतीयविभक्ति अस्ति न वा इति परिशीलनम् अस्ति महोदय. तद् मास्तु इदानीं, तत्र अग्रिम अभ्यासः अष्टम अभ्यासः.
आवरेण दत्तस्य शब्दस्य विभक्तिरूपेण रिक्तस्थानं पुरयत.
आवरणे दत्तस्य शब्दस्य उचितेन विभक्तिरूपेण, तृतीय उचितेन विभक्तिरूपेण रिक्तस्थानं
पुरयत. उदाहरणं, गदाः तत्र सन्ति, आवरेण ताः इति दीयन्ते, तस्य तृतीयविभक्तिरूपं कृत्वा ताभिः भवन्तः युध्यन्ताम्
तत्र वयं दृष्टवन्तः खलु महोदय, युध्यते इति, अतः तत्र युध्यन्ताम् इति अस्ति. भवन्तः तत्र तत्र ताभिः, ताः इति अस्ति, तत्र वचनमस्ति बहुवचनं, तत्र स्त्रीलिङ्गे अस्ति खलु महोदय ताः इति. गदा इति स्त्रीलिङ्गपदमस्ति, अतः ताः इति अस्ति, गदाः, अतः ताभिः. समीचीनं महोदय, अग्रे.
वृक्षाः समीचीनाः सन्ति, आवरणे ते अस्ति, ते चित्रकारः चित्राणि लिखति. वृक्षाः समीचीनाः सन्ति,
सन्ति इति अस्ति, अतः वचनं किं?
सन्ति वचनं बहुवचनं महोदय.
बहुवचनं, अस्तु. इदानीं कूर्चाः इति पदमस्ति बहुवचनरूपं, तत्र एकवचने रूपं किं? कूर्चः, कूर्चः. अतः ते इति अस्ति, तत्र तृतीयविभक्तिरूपं ते. इदानीं तृतीयविभक्तिरूपं ते इति पदस्य
तैः
इदानीं वाक्यं,
चित्रकारः चित्राणि लिखति.
कूर्चः इत्युक्ते दन्तकूर्चः जानीमः खलु, तत्र कूर्चः.
आमां महोदय, आङ्ग्लभाषया ब्रस् इति वदन्ति.
कूर्चः. अग्रिमं महोदय.
छुरिका तीक्ष्णा अस्ति, आवरेण साधयते, जागरूकतया कर्तयतु. छुरिका स्त्रीलिङ्गपदं, प्रथमविभक्ति एकवचनरूपम् अस्ति. सा
अधोभागे दत्तमस्ति महोदय, तत्र सा इत्युक्ते तस्य अस्ति तया,
द्वितीयविभक्ति एकवचनरूप तया.
इदानीं वाक्यमस्ति तत्र,
तत्र तया जागरूकतया कर्तयतु.
अत्र तया कर्तयतु किं भवति? तया इति माध्यमं भवति, जागरूकतया इति भावः भवति. तत्र तृतीया एव अस्ति, किन्तु किञ्चित् भेदः अस्ति तत्र. तया छुरिकया, तया छुरिकया जागरूकतया कर्तयतु इति. समीचीनं महोदय, धन्यवादः. अस्तु, अग्रे उमा मीनाक्षि भगिनी.
ओके,
पुष्पाणि इति
अहं चिन्तितवती, अहं म्यूट् मध्ये अस्मि. ओके, विमानं शीघ्रं गच्छति, पुष्पाणि सुन्दराणि सन्ति, तानि देवम् अर्चयामः. ओके, तैः देवम् अर्चामः.
तैः देवम् अर्चामः. समीचीनं भगिनि, समीचीनम्. अस्तु, अग्रे.
विमानं शीघ्रं गच्छति, तत् तेन भवान् प्रयाणं करोतु.
समीचीनं भगिनि, तेन भवान् प्रयाणं करोतु. तत्र तेन इति किं भवति, भावः वा माध्यमं वा?
माध्यमं, विमानमस्ति न?
विमानमस्ति. समीचीनं भगिनि, माध्यमं, समीचीनं भगिनि.
पूर्ववाक्यमपि पुष्पाणि, तत्र अपि भावः नास्ति.
तत्रापि माध्यमम् अस्ति. समीचीनं भगिनि, अस्तु अग्रे गीतञ्जलि भगिनि.
फलम् उत्तमम् अस्ति तत् फलरसं निर्मातु. फलम् उत्तमम् अस्ति तेन फलरसं निर्मातु.
तेन फलरसं निर्मातु. समीचीनं भगिनि अग्रे.
तत्र मार्जनी अस्ति सा मार्जयतु. सा इत्युक्ते तया मार्जयतु.
हा समीचीनं भगिनि. हा अस्तु धन्यवादः. अस्तु अग्रे रघुपति महोदय.
तानि वस्त्राणि, अस्तु तानि वस्त्राणि मलिनानि सन्ति, तैः किं करोमि?
समीचीनं महोदय. अस्तु हा अस्तु तत्र अधोभागे तत्र तृतीयाविभक्तेः रूपाणि दत्तानि सन्ति. तत्र केवलं किं नूतनं तत्र सः एषः कः सा एषा का तत्तु इदानीं जानीमः. तत्र केवलं महोदय तत्र केवलं प्रायशः भवान् इति रूपस्य एकवारं पठतु, तदनन्तरम् अहं त्वम् अपि.
अस्तु भवान् भवत भवान् इति प्रथमाविभक्ति एकवचन, तृतीयरूपमस्ति भवता भवद्भ्यां भवद्भिः. भवति
तु नदीवत् अस्ति.
नदीवत् अस्ति भवत्या भवतीभ्यां भवतीभिः
इति.
इदानीम् अहम् अस्ति उत्तमपुरुष एकवचन, तत् तृतीयाविभक्तिरूपमस्ति मया अवाभ्याम् अस्माभिः. मध्यमपुरुष अस्ति त्वम् एकवचन अस्ति, तस्य तृतीयाविभक्तिरूपमस्ति त्वया युवाभ्यां युष्माभिः. सर्वः सर्वम् इति नपुंसकलिङ्ग अपि च पुल्लिङ्ग. सर्वेण सर्वाभ्यां सर्वैः. यदा स्त्रीलिङ्ग भवति सर्वा सर्वया सर्वाभ्यां सर्वाभिः.
तत्तु लतावत् अस्ति खलु. सर्वा इति
लतावत् अस्ति.
लतावत् अस्ति. लता लतया लताभ्यां लताभिः. तत्र एतत् सर्वः अपि देवशब्दवत्. अस्तु महोदय. अस्तु तत्र किञ्चित् समयः अस्ति, अग्रे अपि गन्तुं शक्नुमः. धन्यवादः महोदय. तत्र शीतल भगिनी अग्रिमे पुटे तत्र सः इति अस्ति सहयोगे तृतीया विभक्ति इति. तदनन्तरम् अस्ति विना इति तत्रापि तृतीया इति भवति. तत्र रूपम् एकवारं पश्यामः. शीतल भगिनी अग्रे पठति वा 174.
उच्चैः पठतः सोरि उच्चैः पठत जानीत च सहयोगेन तृतीया.
सहयोगे तृतीया.
सहयोगे तृतीया. किं करोमि एतानि वाक्यानि उच्चैः पठत.
न तत्र चित्रमस्ति, चित्रस्य अधोभागे वाक्यमस्ति. धृतराष्ट्रः अस्ति, सञ्जयः अस्ति. तदनन्तरं
धृतराष्ट्रः सञ्जय धृतराष्ट्रः सञ्जयेन सह सम्भाषणं करोति.
तत्र सञ्जयेन सह सम्भाषणं करोति. तत्र सहयोगः अस्ति. सहयोगः अस्ति चेत् तृतीया भवति. सः इति सः इति पदस्य पूर्वपदं तृतीयाविभक्त्यन्तं. सञ्जयः सञ्जयेन इति. अग्रिममपि
कृष्णः राधया सह नृत्यति. अर्जुनः द्रौपद्या सह तिष्ठति. कृष्णः मात्रा सह क्रीडति.
इति अस्ति.
मात्रा
सह क्रीडति. मातुः मातृ ऋकारान्तशब्दः. मात्रा सह क्रीडति इति. अस्तु तत्र कृष्णः राधया सह नृत्यति इति वाक्यस्य परिवर्तनं कृत्वा वदतु. तत्र राधा नृत्यति, तत्र रूपं किं भवति? राधा
कृष्णेन सह नृत्यति.
राधा कृष्णेन
सह
नृत्यति. अपि तत्र द्रौपदी अस्ति, सः तिष्ठति, हा तत्र रूपं किं भवति?
द्रौपदी अर्जुनेन सह तिष्ठति.
हा इदानीं तत्र माता क्रीडति,
माता कृष्णेन सह क्रीडति
इति रूपं भवति. समीचीनं भगिनि, हा अस्तु अग्रे धन्यवादः भगिनि. अस्तु अग्रे सूर्यकुमारी भगिनि, मधुभागी यत् अस्ति.
एतानि वाक्यानि विषयैः पठत. शिशुः मात्रा सह प्रसन्नः तिष्ठति.
हा
मात्रा स्त्रीलिङ्ग तृतीय विभक्ति एकवचनं.
हा सर्वे अवगच्छन्ति खलु मात्रा सह प्रसन्नः तिष्ठति इति. हा अस्तु अग्रे.
शकुनिः नकुलसहदेवाभ्यां सह युद्धं कृतवान्.
हा तत्र नकुलः अस्ति, सहदेवः अपि अस्ति, ताभ्यां सह युद्धं.
तृतीयविभक्ति द्विवचनं.
हा समीचीनं भगिनि, हा अस्तु अग्रे.
क्षम्यतां.
समीचीनं, हा अग्रे भगिनि.
श्रीकृष्णः पाण्डवैः सह आसीत्.
हा
पाण्डवैः पाण्डवः एकवचनं प्रथमविभक्ति, पाण्डवैः तृतीयविभक्ति बहुवचनं.
हा समीचीनम् अस्तु अग्रे.
भीष्मः गङ्गया सह.
न गङ्गया.
ओ गङ्गया सह वार्तालापं कृतवान्.
अत्र कथा अस्ति खलु, कः सम्बन्धः भीष्मापि गङ्गा?
मातापुत्रः.
अस्तु अग्रे.
बालिका शिक्षकाभिः सह भ्रमणार्थं गच्छति.
हा बालिका शिक्षिकाभिः सह भ्रमणार्थं गच्छति, भ्रमणं कर्तुं गच्छति.
शिक्षिका
केवलम् एका अस्ति वा शिक्षिका, अथवा
न बहुवचनं
तृतीयविभक्ति
स्त्रीलिङ्ग शिक्षिका.
हा शिक्षिकाभिः इति तृतीयविभक्त्यन्तरूपं. समीचीनं भगिनि अस्तु.
सन्देशः महोदय, अत्र बालिका शिक्षिकाभिः सह भ्रमणार्थं गच्छति इति अहं मन्ये. एक आल् टुगेदर् गच्छन्ति ते सर्वे.
सत्यं. हा
किन्तु शकुनी नकुलसहदेवाभ्यां सह युद्धं कृतवान् इति एकसमये द्वयोः सह कृतवान् अपि च एकसमये न.
अस्तु 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 भगिनि, तत्र प्रायशः विकल्पः अस्ति, तत्र समानार्थकः प्रायशः न, तत्र कथा सम्यक्तया न जानामि. प्रायशः शकुनिः नकुलेन सह युद्धं कृतवान्, तदनन्तरं सहदेवेन अपि कृतवान् इति मन्ये.
किन्तु
सत्यं सत्यं भगिनि सत्यं, हा एकस्मिन् समये वा अथवा एकस्य अनन्तरं पर्यायरूपेण कृतवान् वा इति न स्मरामि. हा सत्यं भगिनि सत्यं. हा अत्र शिक्षिकाभिः इत्युक्ते सर्वे समूहरूपेण सन्ति इति. सत्यं भगिनि. हा कोऽपि स्मरति वा कथां, तत्र किं भवति, शकुनिः नकुलेन युद्धं कृतवान् तदनन्तरं सहदेवेन वा इति कोऽपि स्मरति वा? अस्तु दृष्ट्वा वा द्रष्टव्यम् अस्ति. अस्तु अस्तु तर्हि सूर्यकुमारी भगिनी, तत्र किमस्ति, तत्र केवलं वाक्य केवलं न्यूनानि वाक्यानि सन्ति, एकवारं पठतु भगिनी पठित्वा. अग्रे.
भवन्तः अस्माभिः सह क्रीडन्तु.
क्रीडन्तु, हा क्रीडन्तु. हा अग्रे
बहुवचनम्. अहं त्वया सह चलामि. मध्यमपुरुष एकवचनं तृतीयविभक्तिः. सेनापतिः
सारथिः हा मतिशब्दवत् इति अस्ति अथवा सारथिः क्षम्यतां हरिशब्दवत् हा कविशब्दवत् हरिणा अत्र सारथिना हा किमर्थं नत्वं न भवति अत्र हा त इति अस्ति त तु पवर्गः नास्ति कवर्गीय नास्ति इति अतः बाधा अस्ति तत्र सारथिना इति भवति अन्तिमं भगिनि
पाण्डवाः गन्धर्वैः सह
अयुध्यन्त
गन्धर्वाः गन्धर्वैः
गन्धर्वैः बहुवचनं पुल्लिङ्गम् इति अस्ति अस्तु अतः सहयोगे तृतीया विभक्तिरूपं भवति इति विषयः अग्रिमवर्गे एतस्य अभ्यासं कृत्वा तदनन्तरं विना इति अपि तत्रापि तृतीया अस्ति इति तदपि दृष्ट्वा अग्रे तुमुन् प्रत्ययान्तानि पश्यामः वदतु भगिनि
महोदय सः इति अव्ययपदम् अस्ति
आं भगिनि वदतु महोदय
न तत्र नकुलसहदेव तौ अपि एककाले शकुन्याः उपरि
ओ अस्तु
प्रहारं कृतवन्तौ तत् सहदेव अहं पठामि आफ्टर् द गेम् आफ् डैस् इन् महाभारत यङ्गेस्ट् आफ् दि पाण्डव ब्रदर्स् सहदेव टेकन् नोट् एवेञ्ज् द्रौपदी इन्सल्ट् and that's sworn to kill Shakuni, the mastermind of the episode. On the 18th day of Mahabharata war, Nakula and Sahadeva attacked Shakuni, Ulluka and their army. Meanwhile, Nakula killed many prominent Gandharan warriors, bodyguards. Sahadeva kills Shakuni by smashing his head, smashing his forehead, fulfilling his oath it here.
अस्तु अस्तु अतः एकस्मिन् समये युद्धं
कृतवन्तः
धन्यवादः महोदय अस्तु गीताञ्जलि भगिनी उत्तरं प्राप्तं
मम प्रश्न इति तु अस्ति किन्तु अत्र वाक्ये व्याकरणे वयं जानीमः न जानीमः इति
न जानीमः भगिनि तत्र एकस्य अनन्तरं भवति चेदपि रूपं समानमेव भवति अत्र अत्रापि अत्रापि समूहः एव अस्ति इति अपि ज्ञातम् अस्तु 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 तर्हि समयः जातः सर्वेभ्यो नमः धन्यवादः अग्रिमवर्गे मिलामः नमस्कारः
नमस्कारः
नमस्कारः महोदय नमस्कारः